ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। सूत उवाच, वैयासके ऋतिवचस्तत्त्वनिश्चयमात्मनः उपधार्य मतिम् कृष्णे औत्तरेय सतीम् व्यधात्। आत्मजाया सुतागार पशुद्रविण बन्धुषु, राज्ये चाविकले नित्यम् विरूढाम् ममताम् जहौ। पप्रच्छ चेममेवार्थम् यन्माम् पृच्छत सत्तमाः, कृष्णानुभावश्रवणे श्रद्धधानो महामनाः। संस्थाम् विज्ञाय सन्न्यस्य कर्मत्रैवर्गिकम् च यत् वासुदेवे भगवति आत्मभावम् दृढम् गतः। राजोवाच, समीचीनम् वचो ब्रह्मन् सर्वज्ञस्य तवानघ, तमो विशीर्यते मह्यम्, हरे कथयतः कथाम्। भूय एव विवित्सामि भगवानात्ममायया, यथेदम् सृजते विश्वम् दुर्विभाव्यमधीश्वरैः, यथा गोपायति विभुर् यथा संयच्छते पुनः। याम् याम् शक्तिमुपाश्रित्य पुरुषशक्तिः परः पुमान्, आत्मानम् क्रीडयन् क्रीडन् करोति विकरोति च। नूनम् भगवतो ब्रह्मन् हरेरद्भुत कर्मणः, दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्। यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा, बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः। विचिकित्स्यतमेतन्मे ब्रवीतु भगवान् यथा, शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु। सूत उवाच, इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः, ऋषिकेशमनुस्मृत्य प्रतिवक्तुम् प्रचक्रमे। श्रीशुक उवाच, नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया, गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्य वर्त्मने। भूयो नमः सद्वृजिनिच्छिरे सता मसम्भवायाखिलसत्त्वमूर्तये, पुंसाम् पुनः पारमहंस्याश्रमे व्यवस्थितानामनुमृग्यदाशुषे। नमो नमस्ते स्तृषभाय सात्वताम्, विदूरकाष्ठाय मुहुक्कुयोगिनाम्, निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः। यत्कीर्तनम् यत्स्मरणम् यदीक्षणम् यद्वन्दनम् यच्छ्रवणम् यदर्हणम्, लोकस्य सद्यो विधुनोति कल्मषम् तस्मै सुभद्रश्रवसे नमो नमः। विचक्षणा यच्चरणोपसादनात् सङ्गम् युदस्योभयतोऽन्तरात्मनः, विन्दन्ति हि ब्रह्मगतिम् गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः। तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदस्तु मङ्गलाः, क्षेमम् न विन्दन्ति विनाय दर्पणम् तस्मै सुभद्रश्रवसे नमो नमः। किरातहूणान्द्रपुलिन्दपुल्कसाभीरकङ्कायवनाखसादयः, येऽन्ये च पापा यदुपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः। स एष आत्मात्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः, गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम्। श्रियापतिर्यज्ञपतिः प्रजापतिर्धियाम् पतिर्लोकपतिर्धरापतिः, पतिर्गतिश्चान्धकवृष्णिसात्वताम् प्रसीदताम् मे भगवान् सताम् पतिः। यदङ्ग्रभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः, वदन्ति चैतत्कवयो यथा रुचम् समे मुकुन्दो भगवान् प्रसीदताम्। प्रचोदिता येन पुरा सरस्वती वितन्वता जस्य सतीम् स्मृतिम् हृदि, स्वलक्षणा प्रादुरभूत् किलास्यतः समे ऋषीणाम् ऋषभ प्रसीदताम्। भूतैर्महद्भिर्यैमा पुरो विभुर्निर्मायशेते यदमूषु पूरुषः, भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृशिष्ट भगवान् वचांसि मे। नमस्तस्मै भगवते वासुदेवाय वेधसे, पपुर्ज्ञानमयम् सौम्यायन्मुखाम्बुरुहासवम्। एतदेवात्मभूराजन्नारदाय विपृच्छते, वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे चतुर्थोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।